इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य दृश्य श्रव्य परान्तरजालीय प्रणाल्या स्वामित्व योजनायाः अन्तर्गतं दश राज्यानां द्वयोः केन्द्रशासित प्रदेशयोः च 50,000+ ग्रामेषु सम्पदाधीशेभ्यः 65,00,000+ यावत् सम्पत्ति पत्राणि वितरिष्यति। रूसदेशस्य सेनायां सेवारताः आहत्य 12 भारतीयाः संघर्षे दिवंगताः। साम्प्रतं यावत् 16 विलुप्ताः सन्ति। ह्यः नवदिल्ल्यां वार्ताहरान् संसूचयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः संसूचयत् यत् केरल वास्तव्यस्य विनियल बाबू इत्यस्य मृत्युः दुर्भाग्यपूर्णास्ति। मन्त्रालयेन च तस्य परिवारं प्रति शोकः प्रकटितः। श्रीजायसवालः प्रोक्तवान् यत् साम्प्रतं यावत् सेनायां सेवारताः 96 भारतीयनागरिकाः भारतदेशं प्रत्यागतवन्तः। अपि च रूसदेशीयेन सेनया तेभ्यः अवकाशः प्रदत्तः। बांग्लादेशस्थित्यै प्रवदन् प्रवक्ता कथितवान् यत् भारतं बांग्लादेशेन सह मैत्रीपूर्णं सम्बन्धं वाञ्छतीति। इज़राइलदेशीयेन प्रधानमन्त्रिणा बेंजामिन नेतन्याहु पुष्टि कृता यत् इज़राइल हमासयोः मध्ये कतरदेशे गहनवार्तानन्तरं बन्धकानां विमुक्तये अथ च गाजाक्षेत्रे युद्धविरामस्य कार्यान्वयनाय एका सन्धिः प्रख्यापिता। 15 प्रचल्यमानस्य संघर्षस्य विरामदिशि अयम् महत्वपूर्णपदक्षेपो वर्तते। इज़राइलदेशेन गृहीतानां फिलिस्तीनदेशीयानां बन्धकानां विनिमयरूपेण हमाससमूहेन गृहीतानां 12 बन्धकानां विमोचनं भविष्यति इति। दिल्ली विधानसभा निर्वाचनाय नामांकन प्रक्रिया ह्यः सम्पन्ना। आम आदमी पार्टीति दलं भारतीय जनता पार्टी कांग्रेस दलानां प्रत्याशिनः समेत्य नैकेषां निर्दलीय दलानां प्रत्याशिनः स्वनामांकन पत्राणि पूरितवन्तः। आगामिनि सोमवासरे नामांकन प्रत्यावर्तनस्य अन्तिमः दिवसः अस्ति। अत्रावधौ राष्ट्रिय राजधान्यां राजनीतिक क्रियाकलापाः तीव्राः सम्भूताः। अद्य सायंकाले नवदिल्ल्याः केडी जाधव क्रीडांगणे इंडिया ओपन बैडमिंटन प्रतियोगितायां भारतीय पुरुषयुगलस्य चिराग सेट्टी सात्विक साईराज रंकीरेड्डी इत्येतौ मलेशिया युगलेन सह उपान्त्यचक्रीय क्रीडायां क्रीडिष्यतः। 25,000+ खोखो विश्व चषक स्पर्धायां भारतीय पुरुष महिला दलद्वये नवदिल्ल्याम् उपान्त्यचक्रीय क्रीडायां प्रविष्टवन्तौ। सम्पूर्णेऽपि स्पर्धायां दले अपराजितौ एव आस्ताम्। श्रोतारः संस्कृतजगतः सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृतसाप्ताहिकीति विशिष्टकार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफ़एम् गोल्ड प्रवाहिकातः श्वः रविवासरे मध्याह्ने 12 भविष्यति। कृपया शृण्वन्तु इति वार्ताः।